एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्रे रत्नावली शर्मा। राष्ट्रिय स्वतन्त्र दलस्य प्रथमैतिहासिके राष्ट्रिय महाधिवेशने मतदानस्य कार्यम् प्रारब्धम् वर्तते। रासोपा दलस्य केन्द्रीय निर्वाचन आयोगस्य प्रमुखस्य भुवन केसी इत्यस्य अनुसारेण एकोनशतस्य पदानाम् कृते वैद्युतम् मतदानम् प्रारब्धम् वर्तते। मतदानस्य प्रारम्भानन्तरम् प्रतिनिधिनाम् महाधिवेशनस्थल प्रकोष्ठे प्रवेशनम् सम्प्रति जायमानमस्ति। अस्यैव आषाढस्य सप्तमा दिवसात् प्रारब्धे महाधिवेशने मतदानस्य कार्यम् इदानीम् प्रातः दशवादनम् यावत् सञ्चलिष्यति इति आयोगस्य प्रमुखः केसी असूचयत्। निर्वाचने चतुरशीत्यधिक शतत्रयेण जनै स्वस्य प्रत्याशिता पञ्जीकारिता वर्तते। एतत्पूर्वमेव दलस्य सभापतिपदे रवि लामिछाने निर्विरोधम् निर्वाचितो वर्तते। मतदानाय घण्टा चतुष्टयात्मक कालः अपेक्षते इति आकलनमस्ति। मतदानस्य समाप्तेः घण्टाद्वयस्य अभ्यन्तरे अन्तिमपरिणामस्य सार्वजनिकरणाय पूर्वकार्यम् विहितम् अस्ति इति रासोपा दलस्य प्रवक्ता मनीष झा असूचयत्। रासोपा दलस्य संशोधित विधानस्य अनुसारेण अष्टापञ्चाशदधिकैकशतम् केन्द्रीय सदस्याः भविष्यन्ति। येष् नवनवतिः सदस्यानाम् निर्वाचनेन चयनम् भविष्यति चेत् एकपञ्चाशत् जनाः सभापतिना मनोनयनस्य व्यवस्था वर्तते। रासोपा दलस्य प्रथमम् राष्ट्रिय महाधिवेशनम् अस्यैव आषाढस्य सप्तमा दिवसात् चितवन जनपदे सञ्चलदस्ति। परह्य नवमम् दिवसम् यावदेव महाधिवेशनाय समयः निर्धारितः सन्नपि प्राविधिक समस्यायाः कारणेन अद्यापि महाधिवेशनम् सञ्चलदेव वर्तते। राष्ट्रिय स्वतन्त्र दलस्य महाधिवेशने सहभागितायै चितवन जनपदम् प्राप्तः प्रधानमन्त्री दलस्य वरिष्ठ नेता च बालेन्द्र शाह काष्ठमण्डपम् प्रत्यागतोऽस्ति। प्रमुख जनपदाधिकारिणः गणेश अर्यालस्य अनुसारेण शाह ह्य काष्ठमण्डपम् प्रत्यागतो वर्तते। प्रधानमन्त्रिणा शाहेन महाधिवेशनस्य उद्घाटन सत्रे सम्बोधनम् विहितमासीत्। महाधिवेशनात् शाह वरिष्ठ नेता प्रचितो वर्तते। अद्यतन दिवसाय निर्धारितः प्रतिनिधिसभायाः उपवेशः ह्य सूचनाम् प्रकाश्य स्थगितीकृतोऽस्ति। संघीय संसद सचिवालयेन सूचनाम् प्रकाश्य उपवेशः स्थगितोऽस्ति इति ज्ञापितम् वर्तते। अद्य पूर्वाह्नस्य एकादशवादनाय आहूतः उपवेशः विशेषकारणेन उपवेष्टुम् न शक्नोति इत्यतः सभामुखेन डोलप्रसाद अर्यालेन श्वः शुक्रवासरे दिवा एकवादनाय उपवेशः निर्धारितोऽस्ति इति सूचनाम् प्रकाश्य संसूचितम् वर्तते। राष्ट्रिय सभायाः उपवेशः पूर्व निर्धारिते समये अद्यैव वसति। तराई क्षेत्रेषु नैरन्तरेण उष्णता वर्धमाना अस्ति। जलवायु वातावरण विज्ञान विभागस्य प्रवक्ता विभूति पोखरेलः आगामि त्रिषु दिवसेषु सुदूरपश्चिम प्रदेशस्य लुम्बिनी प्रदेशस्य च तराई क्षेत्रेषु उष्णवातस्य प्रसरणस्य पूर्वानुमानो विहितमस्ति इति चर्चयन्ती। बागमती गण्डकी प्रदेशयोः अपि उष्णतायाः वर्धनस्य सम्भावना अस्ति इत्यतः सावधानताम् अवलम्बितुम् सर्वान् अनुरुद्धवती। अत्यधिकेन घर्मणा देशस्य तराई क्षेत्रस्य जनजीवनम् प्रभावितमस्ति। पश्चिमवातस्य प्रभावेण सहैव दीर्घकालात् वृष्टेः अभावेन वर्धमानया उष्णतया अत्यधिकया घर्मणा च जनजीवनम् प्रभावितमस्ति इति ज्ञापितम् वर्तते। कैलाली जनपदस्य टीकापुर नगरपालिकायाः बर्दिया जनपदस्य गेरुवा ग्रामपालिकायाः सहयोजकस्य कर्णाली नद्याम् निर्माणाधीनस्य सेतोः निर्माण कार्यस्य समाप्तेः पश्चात् स्थानीयाः प्रसन्नाः वर्तन्ते। सप्तशतं द्वापञ्चाशत् च मीटरमित दूर्याः सेतोरस्य निर्माणम् एकाब्जस्य कोटि चतुष्टयस्य च रूप्यकाणाम् व्ययेन सम्पन्नमस्ति इति ज्ञापितम् वर्तते। नेपाली कांग्रेस दलेन क्रियाशील सदस्यतायाः वितरणस्य अभियानस्य अन्तर्गतम् नवीन क्रियाशील सदस्यतायाः वितरण कार्यम् प्रभावपूर्णम् विधातुम् सप्तसप्ततोऽव जनपदेषु केन्द्रीय प्रतिनिधयः निर्धारिताः वर्तन्ते। नेपाली कांग्रेस दलस्य सदस्यता व्यवस्थापन केन्द्रीय समितेः निर्णयस्य अनुसारेण दलस्य पञ्चदशतमस्य महाधिवेशनस्य कृते संचालितस्य क्रियाशील सदस्यतायाः वितरण अभियानस्य अन्तर्गतम् दल कार्यालयेन ह्य जनपदानाम् केन्द्रीय प्रतिनिधयः निर्धारिताः वर्तन्ते इति ज्ञापितमस्ति। नवीन क्रियाशील सदस्यता वितरण प्रक्रियायां विशेषरूपेण पञ्चत्रिंशत् वर्षाणां न्यूनवयस्कानां यूनां प्रतिनिधित्वस्य सुनिश्चयनाय निर्धारितैः प्रतिनिधिभिः स्वक्षेत्रे प्रवर्तनीयं भवति इति विज्ञप्तौ उल्लिखितं वर्तते। स्थानीय स्तरैः प्रत्येकं वर्षस्य आषाढ मासस्य दशमं दिवसं यावत् आगामिनः आर्थिक वर्षस्य आयव्ययिकं सभासमक्षं प्रस्तुतेः व्यवस्था वर्तते। विधेयसिम्नः अनुसारेण ह्यस्तन दिवसं यावत् प्रायः स्थानीय स्तरैः निर्धारित समये आगामिनः आर्थिक वर्षस्य कृते नगरसभायां ग्रामसभायां च आयव्ययिकं प्रस्तोतुं शक्तं नास्ति। भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्रालयस्य तथ्याङ्कस्य अनुसारेण आराष्ट्रं त्रिंशदुत्तर सप्तशते स्थानीय स्तरेषु ह्यस्तन दिवसं यावत् षष्ट्युत्तर शतद्वय स्थानीय स्तरै एव आयव्ययिकं प्रस्तुतमस्ति।